अथ कालवर्गः कालोदिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः प्रतिपद्वे इमे स्त्रीत्वे तदाद्यास्तिथयोद्वयोः घस्रो दिनाहनीवातु क्लीबे दिवसवासरौ प्रत्यूषो हर्मुखम् कल्यम् उषः प्रत्युषसी अपि व्युष्टम् विभातम् द्वे क्लीबे पुंसि गोसर्ग इष्यते प्रभातम् च दिनान्ते तु सायम् सन्ध्या पितृप्रसूः प्राह्ना पराह्नमध्याह्नाः त्रिसन्ध्यमथ शर्वरी निशा निशीथिनी रात्रिः त्रियामा क्षणदाक्षपा विभावरी तमस्विन्यौ रजनीयामिनी तमी तमिस्रातामसी रात्रिः ज्योत्स्नी चन्द्रिकयान्विता आगामि वर्तमानाहः युक्तायाम् निशिपक्षिणी गणरात्रम् निशावह्व्यः प्रदोषो रजनीमुखम् अर्धरात्रनिशीथौ द्वौ दौयामप्रहरौ समौ सपर्वसन्धिः प्रतिपत् पञ्चदश्योर्यदन्तरम् पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासीतु पूर्णिमा कलाहीने सानुमतिः पूर्णेराका निशाकरे अमावास्यात्वमावस्या दर्शः सूर्येन्दुसङ्गमः सादृष्टेन्दुस्सिनीवाली सा नष्टेन्दुकलाकुहूः उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च सोपप्लवोपरक्तौ द्वौ अग्न्युत्पात उपाहितः एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ अष्टादशनिमेषास्तु काष्ठात्त्रिंशत्तु ताः कला तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम् ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु ताबुभौ द्वौ द्वौ मार्गादिमासौ स्यात् ऋतुस्तैरयनम् त्रिभिः अयने द्वे गतिरुदक् दक्षिणार्कस्य वत्सरः समरात्रिम् दिवे काले विषुवद्विषुवम् च तत् पुष्ययुक्ता पौर्णमासी पौषीमासे तु यत्र सा नाम्ना सपौषो माघाद्याः चैवमेकादशा परे मार्गशीर्षे सः मार्गः आग्रहायणिकश्च सः पौषे तैष सहस्यौ द्वौ तपामाघेथफाल्गुने स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः वैशाखे माधवो राधः ज्येष्ठे शुक्रः शुचिस्त्वयम् आषाढे श्रावणे तु स्यात् नभाश्रावणिकश्च सः स्युर्नभस्यः प्रौष्ठपदभाद्रभाद्रपदाः समाः स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके बाहुलोर्जौ कार्तिकिकः हेमन्तः शिशिरो स्त्रियाम् वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः निदाघ उष्णोपगमः उष्ण ऊष्मागमस्तपः स्त्रियाम् प्रावृट् स्त्रियाम् भूम्नि वर्षा अथ शरत्स्त्रियाम् षडमीरुतवः पुंसि मार्गादीनाम् युगैः क्रमात् संवत्सरो वत्सरोऽब्दः हायनोऽस्त्री शरत्समाः मासेनस्यादहोरात्रः पैत्रो वर्षेण दैवतः दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् मन्वन्तरम् तु दिव्यानाम् युगानामेकसप्ततिः संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि अस्त्रीपङ्कम् पुमान् पाप्मा पापम् किल् विषकल्मषम् कलुषम् वृजिनैनोघम् अम्हो दुरितदुष्कृतम् स्याद्धर्ममस्त्रियाम् पुण्यश्रेयसी सुकृतम् वृषः मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः स्यादानन्दथुरानन्दः शर्मसात सुखानि च श्वश्रेयसम् शिवम् भद्रम् कल्याणम् मङ्गलम् शुभम् भावुकम् भविकम् भव्यम् कुशलम् क्षेममस्त्रियाम् शस्तम् चाथ त्रिषु द्रव्ये पापम् पुण्यम् सुखादि च मतल्लिकामचर्चिका प्रकाण्डमुद्धतल्लजौ प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः दैवम् दिष्टम् भागधेयम् भाग्यम् स्त्रीनियतिर्विधिः हेतुर्नाकारणम् बीजम् निदानम् त्वादिकारणम् क्षेत्रज्ञ आत्मा पुरुषः प्रधानम् प्रकृतिस्त्रियाम् विशेषः कालिकोऽवस्था गुणाः सत्त्वम् रजस्तमः जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः जातिर्जातम् च सामान्यम् व्यक्तिस्तु पृथगात्मता चित्तम् तु चेतो हृदयम् स्वान्तम् हृन्मानसम् मनः इति कालवर्गः।